ॐ नमो भगवते वासुदेवाय। अथ द्वादशोऽध्यायः। मैत्रेय उवाच, इति ते वर्णितक्षत्तः कालाख्यः परमात्मनः महिमा वेदगर्भोऽथ यथाश्राक्षीन्निबोधमे ससर्जाग्रेन्धतामिश्रमथतामिश्रमादिकृत् महामोहं च मोहं च तमश्चाज्ञानवृत्तयः। दृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्वमन्यत भगवद्ध्यानपूतेन मनसान्यां ततोऽसृजत् सनकं च सनन्दं च सनातनमथात्मभूः सनत्कुमारं च मुनीन् निष्क्रियानूर्ध्वरेतसः तान् बभासे स्वभूः पुत्रान् प्रजासृजतपुत्रकाः तन्नैच्छन्मोक्षधर्माणो वासुदेवपरायणाः। सोऽवध्यातः सुतैरेवं प्रत्याख्यातानुशासनैः क्रोधं दुर्विषहं जातं नियन्तुमुपचक्रमे धिया निगृह्यमाणोऽपि भ्रुवोर्मध्यात् प्रजापतेः। सद्यो जायत तन्मन्युः कुमारो नीललोहितः स वैरुरोददेवानां पूर्वजो भगवान् भवः। नामानि कुरु मेधातः स्थानानि च जगद्गुरो इति तस्य वचः पात्मो भगवान् परिपालयन् अभ्यथात् भद्रया वाचा मारोदीस्तत्करोमि ते। यदरोदीः सुरश्रेष्ठ सोद्वेग इव बालकः ततस्त्वामभिधास्यन्ति नाम्ना रुद्र इति प्रजाः। हृदिन्द्रियाण्यसुर्व्योम वायुरग्निर्जलं मही सूर्यश्चन्द्रस्तपश्चैव स्थानान्यग्रे कृतानि मे। मन्युर्मनुर्महिनसो महान्छिवरितध्वजः उग्ररेता भवः कालो वामदेवो धृतव्रतः धीर्वृत्तिरुषनोमा च नियुत्सर्पिरिलाम्बिका इरावती सुधा दीक्षा रुद्राण्यो रुद्रते स्त्रियः गृहाणैतानि नामानि स्थानानि च सयोषणः। एभिस्सृजप्रजा बह्वीः प्रजानामसि यत्पतिः इत्यादिष्ट स गुरुणा भगवान्नीललोहितः सत्त्वाकृतिस्वभावेन ससर्जात्मसमाः प्रजाः रुद्राणां रुद्रसृष्टानां समन्तात् क्रसतां जगत् निशाम्यासङ्ख्यसो यूथान् प्रजापतिरशङ्कत अलं प्रजाभिः सृष्टाभिरीदृशीभिः सुरोत्तम मया सह दहन्तीभिर्दिशश्चक्षुर्भिरुल्बणैः तपातिष्ठभद्रं ते सर्वभूतसुखावहम् तपसैव यथा पूर्वं स्रष्टा विश्वमिदं भवान् तपसैव परं ज्योतिर्भगवन्तमधोक्सजं सर्वभूतगुहावासमञ्जसा विन्दते पुमान्। मैत्रेय उवाच, एवमात्मभुवादिष्टः परिक्रम्य गिराम्पतिं बाढमित्यमुमामन्त्र्य विवेश तपसेवनम् अथाभिध्यायतः सर्गं दशपुत्राः प्रजग्गिरे भगवच्छक्तियुक्तस्य लोकसन्तानहेतवः। मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलः क्रतुः भृगुर्वसिष्ठो दक्षश्च दशमश्चत्र नारदः उत्सङ्गान्नारदो जज्ञे दक्षोऽङ्गुष्ठात् स्वयम्भुवः प्राणाद्वसिष्ठ सञ्जातो भृगुस्त्वचि करात् क्रतुः पुलहो नाभितो जज्ञे पुलस्त्यः कर्णयोर्ऋषिः अङ्गिरामुखतो क्ष्णोत्रिर्मरीचिर्मनसोऽभवत् धर्मस्तनाद्दक्षिणतो यत्र नारायणस्वयम् अधर्मः पृष्ठतो यस्मान् मृत्युर्लोकभयङ्करः हृदि कामो भ्रुवः क्रोधो लोभश्चाधरदच्छदात् आस्याद्वाक्सिन्धवो मेट्रान्निरृतिः पायो रघाश्रयः छायायाः कर्दमो जज्ञे देवहूत्याः पतिप्रभुः मनसो देहतश्चेदं जज्ञे विश्वकृतो जगत् वाचं दुहितरं तन्वीं स्वयंभूर्हरतीं मनः अकामां चकमे क्षत्तः सकाम इति न श्रुतम् तमधर्मे कृतमतिं विलोक्य पितरं सुताः मरीचिमुख्या मुनयो विश्रम्भात् प्रत्यबोधयन् नैतत्पूर्वैः कृतं त्वद्ये न करिष्यन्ति चापरे यत्त्वं दुहितरं गच्छेरनिगृह्यां गजं प्रभुः तेजीयसामपि ये तन्न शुश्लोक्यं जगद्गुरो यद्वृत्तमनुतिष्ठन् वै लोकक्षेमाय कल्पते तस्मै नमो भगवते य इदं स्वेन रोचिषा आत्मस्थं व्यञ्जयामास सधर्मं पातुमर्हति। स इत्थं गृणतः पुत्रान् पुरो दृष्ट्वा प्रजापतीन् प्रजापतिपतिस्तन्वं तत्याजव्रीडितस्तदा तां दिशो जगृहुर्घोरां निहारं यद्विदुस्तमः कदाचिध्यायतः स्रष्टुर्वेदाः संश्चतुर्मुखात् कथं स्रक्ष्याम्यहं लोकान् समवेतान्यथा पुरा चातुर्होत्रं कर्मतन्त्रमुपवेदनयैः सह धर्मस्य पादाश्चत्वारस्तथैवाश्रमवृत्तयः। विदुर उवाच, स वै विश्वसृजामीशो वेदादीन्मुखतोऽसृजत् यद्येना सृजद्देवस्तन्मे ब्रूहि तपोधन। मैत्रेय उवाच ऋग्यजौ सामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः शस्त्रमिद्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात्क्रमात्। आयुर्वेदं धनुर्वेदं गान्धर्वं वेदमात्मनः स्थापत्यं चासृजत् वेदं क्रमात् पूर्वादिभिर्मुखैः। इतिहासपुराणानि पञ्चमं वेदमीश्वरः सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः। षोडशयुक्थौ पूर्ववक्त्रात् पुरिष्यग्निष्टुतावथ आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम्। विद्यादानं तपः सत्यं धर्मस्येति पदानि च आश्रमांश्च यथा सङ्ख्यमसृजत् सह वृत्तिभिः। सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत्तथा वार्तासञ्चयशालीन शिलोञ्च इति वै गृहे। वैखानसा वालखिल्यौ दुम्बरा फेनपावने न्यासे कुटीचकः पूर्वं बह्वो दोहंस निष्क्रियौ। आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च एवं व्याहृतयश्चासन् प्रणवो ह्यस्य दर्रतः तस्योऽश्निगासील्लोमभ्यो गायत्री च त्वचो विभोः। तृष्टुम् मांसात् स्नुतो नुष्टुब् जगत्यस्थ्नः प्रजापतेः मज्जायाः पङ्क्तिरुत्पन्ना बृहति प्राणतो भवत् स्पर्शस्तस्याभवज्जीवः स्वरो देह उदाहृतः। ऊष्माणमिन्द्रियाणि आहुरन्तस्था बलमात्मनः स्वरा सप्तविहारेण भवन्ति स्म प्रजापतेः। शब्दब्रह्मात्मनस्तस्य व्यक्ताव्यक्तात्मनः परः ब्रह्मावभाति वितुतो नानाशक्त्युपब्रह्मितः। ततो परामुपादाय ससर्गाय मनोदधे ऋषीणाम् भूरिवीर्याणामपि सर्गमविस्तृतम्। ज्ञात्वा तद्धृतये भूयश्चिन्तयामास कौरव अहो अद्भुतमेतन्मे व्यापृतस्यापि नित्यदा न हि येदन्ते प्रजा नूनम् दैवमत्र विघातकम्। एवं युक्तकृतस्तस्य दैवम् चावेक्षतस्तदा कस्य रूपमभूद्वेधा यत्कायमभिचक्षते। ताभ्याम् रूपविभागाभ्याम् मिथुनम् समपद्यत यस्तु तत्र पुमान् सोऽभून्मनुस्वायम्भुवस्वरात्। स्त्रियासीच्छतरूपाख्या महिष्यस्य महात्मनः तदा मिथुनधर्मेण प्रजाये धाम्बभूविरे। स चापि शतरूपायाम् पञ्चापत्यान्यजीजनत् प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च भारत। आकूतिर्देवहूतिश्च प्रसूतिरिति सत्तमा आकूतिम् रुचये प्रादात् कर्दमायतु मध्यमाम् दक्षायादात् प्रसूतिम् च यथा पूरितम् जगत्। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीयस्कन्धे द्वादशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।